प्रथम स्कंध अथ दशमोध्याय श्रीकृष्ण का द्वारका गमन।
शौनक उवाच हत्वा स्वरिक्थ स्पृधयात तायिनो युधिष्ठिरो धर्मभृतां वरिष्ठः सानुजै प्रत्यवरुध भोजन कथम प्रवृत्तः किमकारसितः। श्रीसुत उवाच वंशं कुरुर्वंश दवाग्नि निर्हृतम् संद्रोहयित्वा भवभावनो हरिः निवेशयित्वा निजराजैश्वरो युधिष्ठिरं प्रीतमना बभूवः। निशम्य भीष्मोक्तमथाचितोक्तं प्रवृत्त विज्ञान विधूत विभ्रमः। शशास गामिन्द्रैवाजिताश्रयः परिध्युपान्तामनुजानुवर्तितः। कामं बवर्ष पर्जन्यः सर्वकामदुघामहि शिशिचुष्म व्रजान् गाव पयशोधस्वतिर्मुदा। नद्यः समुद्रा गिरयः स वनस्पतिविरुधः फलन्त्योषधयः सर्वः काममनृतु तस्य वै। नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः अजातशत्रावभवन् जन्तूनां रागी कर्हि चेत्। उषित्वा हस्तिन्पुरे मासान् कतिपयान् हरिः सुहृदां च विशोकाय श्वशुश्च प्रियकाम्यया आमन्त्र चाभ्यनुज्ञातः परिष्वज्याभिवाद्यतम्। आरुरोह रथम् कश्चित् परिष्वक्तोऽभिवादितः। सुभद्रा द्रौपदी कुन्ती विराटतनया तथा गान्धारी धृतराष्ट्रश्च जुत्सुर्गौतमो यमौ ब्रिकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः। न सेहिरे विमुह्यन्तो विरहम् सार्ङ्गधन्वनः। सत्सङ्गान् मुक्तदुःसङ्गो हातुम् नोत्सहते बुध कीर्त्यमानम् यशोजस्य सकृदा कर्णेरोचनम् तस्मिन्न्यस्तधियः पार्था सहेरन् विरहम् कथम्। दर्शनस्पर्शम् संलाप शयनासन भोजनैः सर्वे ते निमिषय रक्षैस्तमनु द्रुतचेतसः। वीक्षन्तः स्नेह सम्बद्धा विचेलुस्तत्र तत्र। न्यरुन्धन उद्गलद्वाष्पम् औत्कण्ठ्या देवकी सुते निर्यात्यगारा नो भद्रम् इति स्याद् बान्धव स्त्रियः। मृदङ्गशङ्खभैर्यश्च वीणापणव गोमुखा धुन्धुर्यानघण्टाद्या नेदुर्दुन्धुवयस्तथा। प्रासादशिखरारूढा कुरुनार्योद्दृक्षया बभ्रशुः कुसुमै कृष्णम् प्रेम ब्रीडास्मितिक्षणः। सीतातपत्रम् जग्राह मुक्ता दामविभूषितम् रत्नदण्डम् गुडाकेशः प्रियः प्रियतमस्यः। उद्धवः सात्यकीश्चैव व्यजने परमाद्भुते विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि। अश्रुयन्ताशिषः सत्यास्तत्र तत्र द्विजेरितः नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः। अन्यन्यमाश्रित संजल्प उत्तम श्लोक चेतसाम् कौरवेन्द्रपुरस्त्रीणाम् सर्वश्रुति मनोहरः। स्वै किलायम् पुरुषः पुरातनो ययेकयासीदविशेषयात्मनि अग्रे गुणेभ्यो जगतात्मनीश्वरे निमीलितात्मनिःसुप्तशक्तिषु। स एव भूयो निजवीर्यचोदिताम् स्वजीव मायाम् प्रकृतिम् सशिक्षतिम् अनामरूपात्मनिरूपनामनि विधित्समानोऽनुशसारशास्त्रकृत्। स वा अयम् यत्पदमत्र सूरयो जितेन्द्रिया निर्जितमातरिष्वनः पश्यन्ति भक्त्युत्कलितामलात्मना नन्वेष सत्त्वम् परिमार्ष्टुमर्हति। स वा अयम् सख्यनुगीत सत्कथो वेदेषु गुह्येषु च गुह्यवादिभिः। य एकैषो जगदात्मलीलया सृजत्वत्यति न तत्र सब्जते। यदा यधर्मेण तमो धियो नृपा जीवन्ति तत्रैष हि सत्त्वतः किल। धत्ते भगम् सत्यमृतम् दयाम् यशो भवाय रूपाणि दध जुगे जुगे। अहो अलम् श्लाघ्यतमम् जदोः कुलम् अहो अलम् पुण्यतमम् मधुर्वनम् जदेश पुंसाम ऋषभाश्रियः पतिः स्वजन्मना चंक्रमणेन चांचति। अहो बत स्वर्जस्तिरस्करी कुशस्थली पुण्यजसस्करी भुवः पश्यन्ति नित्यं जदनुग्रहे सितं स्मितावलोकं स्वपतिं स्मजत् प्रजः। नूनं व्रतस्नानहुता दिनेश्वरः समर्चितो यस्य गृहीत पाणिभिः पिबन्ति या सख्यधरामृतं मुहुर्व्रज स्त्रियः सम्मुहुर्जदाशयः। या वीर्जशुल्केन हृतः स्वयंवरे प्रमथ्य चैद्य प्रमुखानि सुस्मिणः प्रदुम्न साम्बाम्बसुता दयोपरा यश्च हृता भौम वधे सहस्रशः।